सर्वेषां समासचिन्तनवर्गे पुनः एकवारं स्वागतम्. समासे द्वयोः पदयोः मेलनं भवति, अपि च पूर्वं श्रूयमाणं पदं पूर्वपदम्, उत्तरं श्रूयमाणं पदम् उत्तरपदम् इति वयं ज्ञातवन्तः. किन्तु द्वयोः पदयोः किं पदं पूर्वं भवेत्, किं पदं परं स्यात् इति प्रश्नः सर्वदा उदेति. तस्य अवगमनार्थं पाणिनिना एका व्यवस्था निर्मिता. अनया व्यवस्थया अस्माभिः उत्तरं प्राप्यते यत् समस्तपदनिर्माणावसरे पूर्वपदं किं भवितव्यम्, उत्तरपदं किं भवितव्यम् एतत् सर्वं वयं ज्ञातुं शक्नुमः अनया व्यवस्थया. तत्र समस्तपदनिर्माणावसरे तत्र एका संज्ञा दीयते. संज्ञायाः नाम अस्ति उपसर्जनम् इति एका संज्ञा, उपसर्जनसंज्ञा इति काचित् संज्ञा अस्ति. संज्ञायाः प्रयोजनं किम् इति पश्यामश्चेत्, यस्य पदस्य उपसर्जनसंज्ञा अस्ति तत् पदं पूर्वपदं भवेत्. अत्र यस्य पदस्य उपसर्जनसंज्ञा अस्ति तत् पदं उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वप्रयोगः भवति इति वयं ज्ञातवन्तः. अत्र उपसर्जनसंज्ञायाः सूत्रद्वयम् अस्ति. सूत्रद्वयं किं? प्रथमानिर्दिष्टं समास उपसर्जनं प्रथमं सूत्रम्, एकविभक्ति च पूर्वनिपाते द्वितीयं सूत्रमस्ति. प्रथमसूत्रस्य प्रसङ्गे वयं किञ्चित् ज्ञातवन्तः. सूत्रं किं वदति, अपि च उपसर्जनसंज्ञा कथं दीयते, अपि च अस्य सूत्रस्य फलं किम्, उपसर्जनस्य फलं किम् अथवा तस्य प्रयोजनं किम्, एतत् सर्वं वयं किञ्चित् पठितवन्तः. तत्र प्रथमसूत्रस्य प्रसङ्गे वयं दृष्टवन्तः. अद्य किञ्चित् पुनस्मरणं कृत्वा द्वितीयसूत्रं किम् इति एकवारं पश्येम. अत्र द्वितीयसूत्रमस्ति एकविभक्ति च पूर्वनिपाते इति सूत्रमस्ति. अत्र उदाहरणं स्वीकृत्य वयं प्रथमसूत्रस्य प्रसङ्गे किञ्चित् अवगन्तुं प्रयत्नं कुर्मः पुनः एकवारम्. अत्र गीताञ्जलिभगिनी भवती किञ्चित् वदति वा, उपसर्जनसंज्ञासूत्रं संज्ञासूत्रं प्रथमं संज्ञासूत्रं किं वदति? नो चेत् अत्र ललिता भगिनी वा.
ओ क्षम्यतां भगिनी, अहं म्यूट् मध्ये, क्षम्यतां भगिनी. उपसर्जनम् इत्युक्ते एकं संज्ञा अस्ति, तत् संज्ञा यत्पदं तत् संज्ञा, यस्य पदं तत् संज्ञा स्वीकरोति तत् पदम् एव प्रथम आगच्छति समासे इति सूत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति वदति.
इत्युक्ते अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रमस्ति. अनेन सूत्रेण किं भवति इत्युक्ते, अत्र साधारणतया वयं समासविधायकसूत्राणि पश्यामः. इत्युक्ते विधिसूत्रेण एव कार्यं भवति. अत्र विधायकसूत्रं दृष्ट्वा तस्मिन् सूत्रे प्रथमानिर्दिष्टं पदम् अथवा प्रथमाविभक्त्यन्तं पदं किम् इति अवगन्तव्यं प्रथमतया. अधुना पूर्वं वयं चर्चितवन्तः पञ्चमी भयेन इति एकं सूत्रं वयं दृष्टवन्तः. तेन सूत्रेण चोरभयम् अथवा व्याघ्रभयम् अथवा व्याघ्रभीतिः, वृश्चिकभीः एतादृशानि समस्तपदानि कथं साधयामः अनेन सूत्रेण इति एकवारं चिन्तनं कुर्मः. अत्र वयं पूर्वमेव चर्चितवन्तः पञ्चमी भयेन इति सूत्रम् उपयुज्य चोरभयम् इति पदस्य विषये तत्र किं भवति इति एकवारं पुनस्मरणार्थं चिन्तयामः. अत्र अरविन्द महोदय, भवान् वदति वा अत्र पञ्चमी भयेन सूत्रस्य प्रसक्तिः किमर्थम् अस्ति तत्र?
आं भगिनि, पञ्चमी भयेन एकं विधि सूत्रमस्ति, तत्पुरुषसमासे वर्तते. तत्र द्विपदं सूत्रम् अस्ति, पञ्चमी एकं पदं, भयेन अन्यपदम्. अत्र अनुवृत्तिसहितसूत्रं वर्तते, पञ्चमी सुप् भयेन सुभः सः विभाषा तत्पुरुषः समासः. अस्मिन् अनुवृत्तिसहितसूत्रे पञ्चमी प्रथमवद् सुप् प्रथमवचनं, भयेन तृतीय, सुपा षष्ठी, सुपासः विभाषा अधिकारसूत्रं, तत्पुरुषः सुपा तृतीय, विभाषा तत्पुरुषसमासः इति अन्यपदम्. अत्र प्रथमानिर्दिष्टं पूर्वम् अपसर्जनम् अस्मिन् सूत्रात् पञ्चमी पदस्य उपसर्जनं संज्ञा भवति. यत् उपसर्जनं संज्ञा विधि सूत्रे अस्ति, तस्य सूत्रस्य यत् प्रातिपदिकं समासे वर्तते तत् प्रातिपदिकं पूर्वं निपातं भवति.
इत्युक्ते अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् अत्र कानिचन पदानि सन्ति, प्रत्येकं पदं स्वीकृत्य तस्य पदस्य अर्थः कः इत्युक्ते प्रत्येकं पदं स्वीकृत्य किञ्चित् विवृणोतु. पञ्चमी सुप् भयेन सुपासः विभाषा तत्पुरुषः समासः, एतत् सर्वम् अत्र पदानि, प्रत्येकं पदं स्वीकृत्य तस्य अर्थः.
तत्पुरुषसमासे विकल्पेन भयेन सुबन्तः सः पञ्चमी पदं वर्तते. यदि तत् पञ्चमी पदस्य उपसर्जनं भवति.
उत्तमम्. इत्युक्ते अत्र तत्पुरुषसमासप्रसङ्गे कार्यं विकल्पेन भवति, विभाषा इति पदमस्ति इति कृत्वा, अपि च पञ्चमी सुप् एतत् पदद्वयं प्रथमाविभक्त्याम् अस्ति इति कृत्वा तत्र तयोर्मध्ये विशेषणविशेषभावः अस्ति. अपि च भये इत्युक्ते अत्र पञ्चम्यन्तं पूर्वपदं पञ्चम्यन्तं पदम् अस्ति चेत् उत्तरपदं भयशब्देन सह समस्यते इति पञ्चमी भयेन इति तत्पुरुषसमासस्य विधायकसूत्रं वदति. अत्र पञ्चमी इति पदं प्रथमान्तं पदमस्ति इति कृत्वा प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण तस्य पदस्य उपसर्जनसंज्ञा भवति. यदा उपसर्जनसंज्ञा भवति तदा भिन्नसूत्रेण उपसर्जनं पूर्वम् इति सूत्रेण तत्र तस्य पूर्वप्रयोगः भवति. अत्र उपसर्जनसंज्ञायाः प्रयोजनम् एकं प्रयोजनम् अत्र उक्तमस्ति, प्रयोजनं साधारणतया बहुषु स्थलेषु समासप्रसङ्गे प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रस्य प्रसक्तिः एव बहुत्र दृश्यते. यद्यपि द्वितीयं सूत्रमस्ति किन्तु बहुत्र अयं सूत्रं तु प्रमुखः. एतावता वयं अस्मिन् प्रसङ्गे किञ्चित् दृष्टवन्तः. अत्र सूत्रस्य कृते अन्यत् उदाहरणमपि दत्तमस्ति. अत्र अत्र सरला भगिनी भवती वदति वा, अत्र षष्ठी इति सूत्रं स्वीकृत्य सीतापतिः इत्यस्मिन् पदे सीता इति पदं किमर्थं पूर्वपदमस्ति इति किञ्चित् वदतु.
सीतापति समस्तपदे यदि व्यस्तप्रयोगः कुर्मः भवति सीतायाः पति. सीतायाः पति अस्मिन् पदे द्वे पदमस्ति. सीतायाः पूर्वपदमस्ति पति सीतायाः इति षष्ठी विभक्त्यां पदं पति इति प्रथमा विभक्त्यां. सो सीतायाः षष्ठी विभक्त्यां यः पदं युक्तः अस्ति तत् षष्ठी इति सूत्रेण षष्ठ्यन्तं सुबन्त पदेन तत् पदं सम्बन्धो भवति अन्यसुबन्ध सुबन्तं पदं तत् अस्ति पतिः. सो अतः तस्या भवति षष्ठी इति प्रथमाविभक्त्यां इति सूत्रेण षष्ठी इति प्रथमाविभक्त्याम् आगच्छति. तस्य उपसर्जन संज्ञा भवति सीताया सह. सो सीतायाः तस्य प्रातिपदिकं सीता अस्ति तत् समस्तपदे पूर्वपदं भवति सीता. पति अस्ति उत्तरपदं सीतापति इति भवति समस्तपद. सो इदानीं षष्ठी इति विधायकसूत्रम् अस्ति तत्पुरुषसमासकृते. तस् वदति षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन स समस्यते इत्युक्ते यत् सूत्रे यत् पदं षष्ठी इति प्रथमाविभक्त्याम् अस्ति तस्य भवति उपसर्जनसंज्ञा इति प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण भवति. अतः वयं सीता इति तस्य उपसर्जनसंज्ञा कृत्वा षष्ठी इति सूत्रेण प्रथमाविभक्ति आनेतुं तस्य पूर्वपदम् आनीतवन्तः इति. सो षष्ठी इति अनुवृत्तिसूत्रमस्ति षष्ठी सुप् सुपा सह विभाषा तत्पुरुषसमास इत्युक्ते षष्ठी प्रथमा षष्ठ्यन्तं पदं तस्य प्रथमा विभक्त्याम् अस्ति. सुप् इति सुबन्तं पदम् इति सुपा सह अन्य सुबन्त पदेन सह तस्य सम्बन्धमस्ति सामर्थ्यमस्ति. विभाषा विकल्पेन समस्तपदं भवे वा व्यस्तप्रयोगः भवेत् तत्पुरुषसमास इति वदति. सो अस्माकं सीताया पति इति सूत्रे त्रीणि सूत्राणि आगत्य अस्माकं पदं निर्दिष्टं भवति. प्रथमम् अस्ति षष्ठी विधायकसूत्रं सीतायाः षष्ठी इति आगच्छति. द्वितीयम् अस्ति प्रथमानिर्दिष्टं समासोपसर्जनं प्रथमानिर्दिष्टं यत् अस्ति तस्य सूत्रे यस्य प्रथमानिर्दिष्टं पदम् अस्ति तस्य उपसर्जनसंज्ञा भवति. तृतीयं भवति उपसर्जनं पूर्वं सूत्रं अनेन यत् प्रथमानिर्दिष्ट यस्य पदस्य उपसर्जनसंज्ञा अस्ति तत् समस्तपदे पूर्वपद भवति.
उत्तमम् उत्तमं भगिनि. आहत्य अत्र त्रीणि सूत्राणि प्रसक्तानि. अत्र सीतापतिः समस्तपदं सीतायाः पतिः विग्रहवाक्यमस्ति. तत्र षष्ठी इति विधायकसूत्रमस्ति तत्पुरुषसमासस्य विधायकसूत्रमस्ति. किन्तु प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा दीयते. कस्य पदस्य? सीता इति पदस्य उपसर्जनसंज्ञा दीयते. अत्र षष्ठी इति प्रथमान्तं पदम् विधायकसूत्रे अस्ति इति कारणतः अत्र सीतापदस्य उपसर्जनसंज्ञा भवति. अपि च अत्र उपसर्जनं पूर्वम् इति विधिसूत्रेण तत्र कार्यं भवति. कार्यं किम् इत्युक्ते पूर्वनिपातः इत्युक्ते तस्य पदस्य पूर्वप्रयोगः एव कार्यम् इति वयं दृष्टवन्तः एतावत्पर्यन्तम्। अधुना वयं पूर्वमेव दृष्टवन्तः यत् अत्र उपसर्जनसंज्ञायाः सूत्रद्वयमस्ति, अत्र द्वितीयं सूत्रं किम् इति द्रष्टव्यम् अद्य। अपि च तस्मिन् सन्दर्भे इतोपि अन्यानि विषयानि कानि इत्युक्ते तत्सर्वं वयम् अद्य पठिष्यामः। अत्र सर्वे करपत्रम् एकवारं पश्यन्तु, उपसर्जनस्य विषये अन्यत् सूत्रमस्ति, तस्मात् आरभ्य पठामः। अत्र सुमन् भगिनी भवती पठति वा?
अस्तु भगिनि। उपसर्जनस्य विषये अन्यत् सूत्रम् अस्ति, एकविभक्ति च अपूर्वनिपाते इति। एकविभक्ति चापूर्वनिपाते विग्रहस्य अवस्थायां तत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातत् कार्ये कर्तव्ये उपसर्जनसंज्ञा भवति, परन्तु तस्य पूर्वनिपातः न भवति। सम्पूर्णप्रतिच्छेदं पठित्वा
प्रथमतया पूर्णतया पठतु, तदनन्तरं प्रत्येकं वाक्यं स्वीकृत्य किञ्चित् प्रतिपादयतु।
अस्तु, प्रयत्नं करोमि। विग्रहवाक्यं दशायां यस्य पदस्य विभक्तिः निश्चिता अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति। यदा तत्र पूर्वनिपातनं विहाय अन्यकार्यं भवति, इदं संज्ञासूत्रम् अस्ति। एका विभक्तिः यस्य तद् एकविभक्तिः बहुवृत्ति पूर्वश्चासु निपातश्चेति पूर्वनिपातः कर्मधारयः समासः, न पूर्वनिपातः अपूर्वनिपातः तस्मिन् पूर्वनिपाते नञ् तत्पुरुषः समासः। एकविभक्तिः प्रथमान्तं च अव्ययम् अपूर्वनिपाते सप्तम्यन्तम् प्रथम निर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः सहितसूत्रम् अस्ति। एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् अस्तु। सूत्रमस्ति एकविभक्ति च पूर्वनिपाते इदानीं प्रथम वाक्यं पुनः पठामि। विग्रहस्य अवस्थायां यत् पदं नियताविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति, परन्तु तस्य पूर्वनिपातः न भवति। अस्तु, एतत् वाक्यं वदति यत्र विग्रहवाक्ये यत् पदं सर्वदा नित्यम् एकस्याम् एव विभक्त्यां भवति तत् तत् एकविभक्ति इति तस्य शब्दस्य उपसर्जनसंज्ञा भवति, किन्तु तत् पदं पूर्व समासे पूर्वपदं न भवति इति।
उत्तमं तत्र किञ्चित् इतोपि किञ्चित् चिन्तयामः अत्र विग्रहस्य अवस्थायाम् इत्युक्ते यदा वयं विग्रहवाक्यकथनवेलायां साधारणतया यस्य अग्रे अस्माकं कृते एकम् उदाहरणमपि दत्तमस्ति अतिमालः इति उदाहरणं परिशीलयामश्चेत् वयम् इतोपि समीचीनतया अवगन्तुं शक्नुमः तस्मिन् पदे नियतविभक्त्यां यत् पदम् अस्ति तस्य उपसर्जनसंज्ञा भवति इति प्रथमविषयः उत्तरम् अन्यः विषयः तु अत्र पूर्वनिपातात् भिन्नकार्ये कर्तव्ये अत्र भिन्नकार्ये कर्तव्ये इति अहं चिन्तयामि सतिसप्तमी प्रयोगः अपि च अत्र पूर्वनिपातात् भिन्नकार्ये इत्युक्ते किमर्थम् इत्युक्ते पूर्वं वयं किम् अवगतवन्तः यस्य पदस्य उपसर्जनसंज्ञा भवति तत्पूर्वं भवति इति वयं पठितवन्तः किन्तु अत्र भिन्नं कार्यम् अस्ति इति इदं सूत्रं वदति तत् भिन्नं कार्यं किम् इति अस्माभिः अवगन्तव्यं तस्य यद्यपि तस्य उपसर्जनसंज्ञा भवति तथापि तस्य पूर्वनिपातः न भवति अग्रे वदतु भगिनि
अस्तु विग्रहवाक्यस्य दशायां यस्य पदस्य विभक्तिः निश्चिता अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति यदा तत्र पूर्वनिपातनं विहाय अन्यकार्यं भवति भवती यत् उक्तवती तत् एव अस्ति इदानीं विग्रहवाक्ये पदस्य यत् पद यस्य पदस्य विभक्तिः सर्वदा नो चेत् नित्य एकस्यां विभक्त्याम् एव भवति तत्तु उपसर्जनसंज्ञा भवति किन्तु तस्य कार्यम् अन्यत् अस्ति तस्य कार्यं तु पूर्व निपात न भवति तत् पूर्वनिपातनं न भवति तत् विहाय अन्यकार्यं भवति
उत्तमम् इदं संज्ञासूत्रम् इति उक्तमस्ति इत्युक्ते किं
सूत्रं संज्ञासूत्रम् अस्ति इत्युक्ते द्वितीय डेफिनेशन् अस्ति उपसर्जन किं भवितुं शक्नोति प्रथमं तु आसीत् यत् पदं प्रथमानिर्दिष्टं समासविधायकसूत्रे तत् उपसर्जनं पदं भवति अत्र वदति एकविभक्तिः अस्ति चेत् तदपि अपि च तत्र तस्य कार्यं पूर्वनिपातः नास्ति चेत् तत् अपि उपसर्जनं पदं भवति
उत्तमम् इत्युक्ते अत्र संज्ञासूत्रम् इत्युक्ते अनेन केवलं संज्ञा दीयते तत्र कार्यं न भवति केवलम् उपसर्जनसंज्ञा दीयते तावदेव अत्र अस्मिन् सूत्रे एकविभक्ति इति एकं पदम् अस्ति तस्य तदपि समस्तपदमेव तस्य कृते तत्र विग्रहवाक्यं कथं वक्तव्यम् अत्र दत्तमस्ति वदतु
एका विभक्तिः यस्य तत् एकविभक्तिः अस्ति यस्य पदस्य एका विभक्तिः अस्ति तत् पदम्
एकविभक्तिः अग्रे गत्वा एकम् अन्यत् पदमपि अस्मिन् अर्थे एव उक्तमस्ति एकविभक्तिमत् पदम् इति लिखितम् अस्ति मतु प्रत्ययान्तरूपं योजयित्वा अग्रिमे परिच्छेदे लिखितम् अस्ति अत्र तु सूत्रे एकविभक्ति इति पदमस्ति इति कृत्वा तस्य विग्रहवाक्यम् ईदृशरीत्या लेखनीयं बहुव्रीहिसमासप्रसङ्गे विग्रहवाक्यम् ईदृशरीत्या भवति अपि च अत्र च इति अव्ययपदमस्ति तत्र सवर्णदीर्घसन्धिः भूत्वा च पूर्वनिपाते इत्यस्मिन् पदे तत्र यथा भवत्या उक्तम् अपूर्वनिपाते इति लिखितम् अस्ति अत्र पूर्वनिपातः तस्य विग्रहवाक्यं किम्
पूर्वनिपातः इत्युक्ते यस्य पदस्य पूर्वं यत् पदं पूर्वं निपाति वा तत् पूर्वनिपातः.
सम्यक् भगिनी, अत्र केवलं किमर्थं पृच्छामि इत्युक्ते अत्र पूर्वनिपातः इति पदस्य विग्रहवाक्यं लिखितमस्ति. तत् पदं कर्मधारयसमासयुक्तं पदमस्ति. पूर्वः च असौ निपातः च इति पूर्वनिपातः. अत्र अस्मिन्नेव परिच्छेदे लिखितमस्ति पूर्वश्च असौ निपातः च. इत्युक्ते तत्र कर्मधारयसमासप्रसङ्गे तादृशरीत्या वयं विग्रहवाक्यं लिखामः. इत्युक्ते तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. पूर्वः च, एषः निपातः च, तादृशरीत्या विग्रहवाक्यं पूर्वनिपातः इति पदस्य कृते भवति. अनन्तरम् अत्र पूर्वनिपातः इति नास्ति, किमस्ति? अपूर्वनिपातः इति अस्ति. वदतु.
अपूर्व निपातः नञ्चत्पुरुष समासः अस्ति. यत् पूर्वनिपातः नास्ति तत् अपूर्वनिपातः. सत्यम् असत्यम् इव.
उत्तमम् उत्तमं, तथा एव. अत्र तु अपपूर्वनिपाते इति लिखितमस्ति. किञ्चित् मुद्रणदोषः एव अत्र. अपूर्वनिपाते इति सप्तम्यन्तं रूपम् अस्ति. अत्र पुनः पश्यामश्चेत् न पूर्वनिपातः अपूर्वनिपातः तस्मिन्. किमर्थमित्युक्ते तत्र अपूर्वनिपातः इति पदं प्रथमाविभक्त्यन्तं पदमस्ति, किन्तु अपूर्वनिपाते इति सप्तमी विभक्त्यन्तं समस्तपदस्य रूपं सप्तमी विभक्त्याम् अस्ति इति कृत्वा तत्र विग्रहवाक्यं तथा लेखनीयम्. इत्युक्ते न पूर्वनिपातः अपूर्वनिपातः तस्मिन्. तेन नैतत्पुरुषसमासः भवति. आहत्य इतोपि अत्र किमस्ति?
विभक्ति अस्ति, तत्तु वयं चर्चितवन्तः. प्रथमान्तम् अस्ति, च अव्ययम् अस्ति, अपूर्वनिपाते सप्तम्यन्तम्. इदानीम् अनुवृत्ति सहितसूत्रं भवति एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम्.
उत्तमम्. अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रं पूर्वसूत्रमस्ति. एकविभक्ति च अपूर्वनिपाते इति परसूत्रमस्ति. यदि वयं सूत्रसङ्ख्यां पश्यामश्चेत् प्रथमानिर्दिष्टं सूत्रं त्रिचत्वारिंशत्तमं सूत्रमस्ति. एकविभक्ति च पूर्वनिपाते परसूत्रमस्ति इति कृत्वा पूर्वसूत्रात् पदद्वयम् अनुवृत्तिरूपेण अत्र आगतम्. पदद्वयं किम्?
तस्य अधिकारः अस्ति.
अत्र पूर्वसूत्रात् अत्र समासः इति एकं पदम्, अपि च उपसर्जनम् इति अन्यत् पदम्. एतत् पदद्वयम् अनुवृत्तिरूपेण द्वितीये सूत्रे
आगच्छति.
उत्तमम् उत्तमं भगिनि, तावदेव. अत्र ललिता भगिनी भवती पठतु अग्रिमपरिच्छेदम्.
क्षम्यतां महोदय, बालसुब्रह्मण्यन् विलम्बेन आगतः.
चिन्ता मास्तु महोदय. ललिता भगिनी पठति वा?
धन्यवादः भगिनी.
धन्यवादः. नो चेत् अत्र बालसुब्रह्मण्य महोदय भवान् एव पठतु अत्र.
पठति, अहं पठामि.
पठतु पठतु भगिनी. पठतु.
एका इति यत् पदं तत्पर्यन्तं
तस्मात् आरभ्य
एका इति यत् पदं सूत्रे अस्ति तत् पदं निश्चितार्थे स्वीक्रियते. एका विभक्तिः इत्युक्ते नियतविभक्तिमत् पदम् इति. यस्य पदस्य विभक्तिः निश्चिता भवति तत् पदमेव एकविभक्तिमत् पदम् इति कथ्यते. यदा समासे द्वयोः पदयोः मध्ये एकं पदं नियतविभक्त्याम् अस्ति तस्य विभक्तेः परिवर्तनं न भवति परन्तु अन्यपदस्य विभक्तेः परिवर्तनं भवितुम् अर्हति अस्यां स्थित्यां यस्य पदस्य विभक्तेः परिवर्तनं न भवति तत् पदमेव नियतविभक्त्याम् अस्ति जानामि एक्स्प्लेनेशन् बट्
चिन्ता मास्तु
एका इति यत् पदं सूत्रे तत् पदं निश्चितार्थे स्यूते एकविभक्ति इत्युक्ते नियतविभक्ति विभक्तिमत् पदम्
उत्तमम् अत्र पश्यतु एका इति पदं सूत्रे दत्तमस्ति एका इति पदं सूत्रे अस्ति तत् पदं निश्चितार्थे स्वीक्रियते साधारणतया एकं द्वे त्रीणि चत्वारि तादृशरीत्या वयं वदामः किन्तु अत्र एका इति पदस्य अर्थः किम् अर्थः कः इत्युक्ते निश्चितेन तस्य रूपं सर्वदा तस्य परिवर्तनं न भवति एकमेव रूपं दृश्यते तस्य विभक्तिः निश्चितरूपेण भवति इति अर्थः न तु अत्र एका इति पदस्य इतोपि स्पष्टीकरणार्थम् अत्र एका इति पदं निश्चितार्थे स्वीकर्तव्यम् इति अत्र विषयः अनन्तरं द्वितीयं वाक्यमस्ति एकविभक्तिः इत्युक्ते नियतविभक्तिमत् पदम्
विभक्तिमत् पदम् इत्युक्ते एकविभक्तिः
अत्र सरलाभगिनी जानाति सरलाभगिनी वदति वा अत्र मतु प्रत्ययान्तरूपम् अस्ति सरलाभगिनी विवृणोति वा
मत्तु प्रत्ययम् इत्युक्ते अस्य वा अस्मिन् वा इति तस्य अर्थं भवति एकविभक्ति इत्युक्ते नियतविभक्तिमत् मीन्स् नियतविभक्ति तस् अस्मिन् अस्ति वा अस्य अस्ति इति तस्य अर्थः भवति अत्र अस्माकं एकविभक्तिमत् इति भवति मीन्स् एकविभक्त्यां यस् अस्ति तत्र भवति अस्मिन् अस्ति अस्य अस्ति मीन्स् तस्य एकविभक्तिः एव अस्ति इति तस्य अर्थं भवति
इत्युक्ते आहत्य अस्य पदस्य अर्थः कः इति पश्यामश्चेत् वयं गीताप्रवेशपुस्तके पूर्वं मतु प्रत्ययान्तरूपाणि वतु प्रत्ययान्तरूपाणि वयं परिशीलितवन्तः यस्य यस्मिन् वा इति विग्रहवाक्यं वक्तव्यं भवति तत्र तेषु पदेषु गुणः तत्र गुणवान् गुणवान् इति पदं स्वीकुर्मः चेत् गुणः अस्य अस्ति अथवा अस्मिन् अस्ति इत्यस्मिन् अर्थे गुणवान् इति पदं सिध्यति गुणवान् इति पदं मतु प्रत्ययान्तपदमस्ति अत्र पदम् इति इत्यस्य विशेषणमेव नियतविभक्तिमत् पदम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र नियतविभक्तिमत् इति लिखितमस्ति यदि शब्दः इति पदं स्वीकृत्य वदामश्चेत् नियतविभक्तिमान् शब्दः इति भवति इत्युक्ते तत्र पुंलिङ्गे मान् इति आयाति स्त्रीलिङ्गे मती इति दीर्घ ईकारान्तम् आयाति नपुंसकलिङ्गे मत् इति प्रातिपदिकं तथा एव तिष्ठति एतत् पदं मतु प्रत्ययान्तरूपम् अस्ति इत्युक्ते अत्र यस्मिन् पदे नियतविभक्तिकत्वम् अस्ति तत् पदम् इति अर्थः नियतविभक्तिमत् पदम् अथवा नियतविभक्तिमान् शब्दः
भगिनि मम प्रश्नः अस्ति
वदतु भगिनि
पूर्वस्मिन् परिच्छेदे इदं वाक्यम् आसीत् एका विभक्तिः यस्य तद् इदानीं तु तत् पदस्य एका विभक्तिः बहुभिः पदं बहु एका विभक्तिः कथं भवितुं शक्नोति विभक्तिः तु स्त्रीलिङ्गपदम् एका विभक्तिः अपि स्त्रीलिङ्गं भवति नो चेत् पुल्लिङ्गः भवति किन्तु कथं पदम् एका विभक्तिः भवितुं शक्नोति
प्रश्नः समीचीनः एव एकविभक्तिः इति बहुव्रीहिसमासः इति लिखितमस्ति उपरि अपि च अत्र किन्तु सूत्रे विसर्गः न दृश्यते, इत्युक्ते अत्र विसर्गसन्धिसूत्रं कार्यं करोति वा इति द्रष्टव्यम्। अत्र विसर्गसन्धिसूत्रं कार्यं न करोति, किमर्थमित्युक्ते तत्र इचः परस्य विसर्जनीयस्य रेफः इति सूत्रं कार्यं करोति। किमर्थमित्युक्ते एकविभक्ति इति पदम् इकारान्तपदमस्ति, अन्तिमपदम्
अस्तु,
तत्र रेफादेशः भवति इति कृत्वा तत्र द्वितीयं पाठसूत्रस्य कार्यं नास्ति। तत्र केवलम् अहं चिन्तयामि भगिनि, अहं
न अवगच्छामि भगिनि, प्रायः भवती किञ्चित् अग्रे गतवती, अहं तु
चिन्ता मास्तु भगिनि, अहं चिन्तयामि अत्र एकविभक्ति इति एव अस्ति, विसर्गः अस्ति वा इति द्रष्टव्यम्।
अस्ति भगिनि, अत्र परिच्छेदे अत्र
न भगिनि, मम प्रश्नः तु तत्र विग्रहवाक्यं पश्यामश्चेत् एका विभक्तिः यस्य तद् किमर्थं वदामः तद् इति वदामश्चेत् तत् पदम् इति, इत्युक्ते नपुंसकलिङ्गपदस्य विषये वयं वदामः, तस्मिन् सन्दर्भे एव विग्रहवाक्ये तद् इति लिखामः। किन्तु भगिन्याः प्रश्नः तु एकविभक्तिः इति पदं तत्र नपुंसकलिङ्गपदम् इव न दृश्यते, तत्र स्त्रीलिङ्गपदम् इव दृश्यते इति भगिन्याः प्रश्नः। अत्र विद्या भगिनीं पृच्छामः, तत्र किम् अस्ति,
यत्र वयं तु शूलपाणिः वीणापाणि इत्युक्ते दृश्यामः खलु, तत्र अन्यकमपि आगच्छति वा अन्ते विभक्तिरूपेण इति
द्रष्टव्यं भगिनि अत्र।
अस्तु, धन्यवादः।
अपि च अत्र यस्य पदस्य विभक्तिः निश्चिता भवति तत् पदमेव एकविभक्तिमत् पदम् इति
योजयामः चेत् सर्व चिन्ता गच्छति
गच्छति अस्तु। अत्र इतोपि अत्र ललिता भगिनी भवती किमपि वक्तुमिच्छति वा अत्र अग्रिमे अस्मिन् परिच्छेदे किं दत्तमस्ति तस्य चिन्तनं कुर्वन्तः स्मः वयं, यस्य पदस्य विभक्तिः निश्चिता भवति तत् पदमेव एकविभक्तिमत् पदम्। अत्र पदम् इत्यस्य विशेषणं, पदम् इत्यस्य विशेषणमेव एकविभक्तिमत् पदं। कीदृशं पदम् एकविभक्तिमत्? एकविभक्तिमत् पदम् इत्युक्ते किम्? एकविभक्तिमत् पदम् इत्युक्ते यस्य पदस्य विभक्तिः सर्वदा निश्चितरूपेण एका एव विभक्तिरूपं दृश्यते इति, इत्युक्ते तत् सर्वं पूर्वस्मिन् परिच्छेदे लिखितमस्ति। अपि च अग्रिमं वाक्यं, यदा समासे द्वयोः पदयोः मध्ये एकं पदं नियतविभक्त्याम् अस्ति तस्य विभक्तेः विभक्तिपरिवर्तनं न भवति, किन्तु अन्यपदस्य विभक्तिपरिवर्तनं भवितुमर्हति। अनेन वाक्येन किम् अवगम्यते भवत्या?
यदि एकं पदं नियतविभक्त्यां समासे द्वयोः पदयोः अस्ति तस्य विभक्तेः परिवर्तनं न भवति।
अत्र किं भवति इत्युक्ते, साधारणतया वयं समस्तपदे पदद्वयं पश्यामश्चेत् द्वयोः पदयोः मध्ये एकं पदं नियतविभक्त्याम् अस्ति, इत्युक्ते एकस्य पदस्य विभक्तिः निश्चिता अस्ति, किन्तु अन्यपदस्य विभक्तिपरिवर्तनं भवितुम् अर्हति। तादृश्यां स्थित्यां तस्यां दशायां यस्य पदस्य विभक्तिः परिवर्तनं न भवति तत् पदमेव नियतविभक्त्याम् अस्ति इति वक्तुं शक्यते। अत्र सरलमेव, इत्युक्ते समस्तपदे विग्रहवाक्यं विग्रहवाक्यकथनवेलायां यस्य पदस्य विभक्तिपरिवर्तनं न भवति तत् पदमेव नियतविभक्तिमत् पदम्। इति विषयः.
धन्यवादः.
अनन्तरम् अत्र विनयमहोदय भवान् पठति वा अत्र?
आं भगिनि. एकविभक्तिः च अपूर्वनिपाते इति सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति, परन्तु पूर्वनिपातः न भवति. तर्हि उपसर्जनस्य का आवश्यकता? तस्य प्रयोजनं किम्? अग्रे पठामि.
अग्रे पठतु महोदय.
समाधानम् अस्ति यत् उपसर्जन संज्ञकस्य शब्दस्य ह्रस्वदेशः भवति. गोस्त्रियोः रूपसर्जनस्य सूत्र प्रथमाध्याय तृतीयपादः अष्टचत्वारिंशत् इति सूत्रेण, परन्तु तस्य पूर्वनिपातनं न भवति. गोस्त्रियोः रूपसर्जनस्य इति सूत्रं वदति गोशब्दः अथवा स्त्रीलिङ्गशब्दः उपसर्जनसंज्ञकः चेत् तदन्तस्य प्रातिपदिकस्य ह्रस्वतं स्यात् इति. नाम अत्र अस्माकम् अवधानं गोस्त्रियोः रूपसर्जनस्य इति सूत्रस्य विषये नास्ति, परन्तु यत्र एकविभक्तिः च अपूर्वनिपाते इति सूत्रस्य कार्यं भवति, तत्र उपसर्जनसंज्ञकस्य पूर्वनिपातः इति प्रयोजनं नास्ति. यथा उदाहरणम् इदानीं, यथा अतिक्रान्तः मालाम्, अतिक्रान्तः मालं पदद्वयं, मालां नियत पदम् अस्ति, अतिक्रान्तेन मालाम्, अतिक्रान्ताय मालाम्, अतिक्रान्तात् मालाम्, अतिक्रान्तस्य मालाम् इत्यादिषु विग्रहवाक्येषु मालाम् इति पदं द्वितीया विभक्त्याम् एव निश्चितरूपेण अस्ति. अति इति अव्ययम् अव्ययम् अतिक्रान्तः इति अस्मिन् अर्थे मालाम् इति द्वितीयान्तपदेन सह समस्यते.
धन्यवादः महोदय. वदति वा? इतोपि वदति वा? वदतु.
यदि एकविभक्ति च अपूर्वनिपाते सूत्रं वयं वदामि, तर्हि उदाहरण सम्बन्धे एक उदाहरण, अतिक्रान्तः अव्ययं मालां द्वितीयभवक्ति, परन्तु द्वितीयभवक्ति नियत भवक्ति. अन्य उदाहरणं सन्ति अतिक्रान्तः कोकिलाम्, अतिकोकिलः इत्यादि.
इत्युक्ते अत्र धन्यवादः महोदय. अत्र यथा भवता उक्तम्, अत्र एकविभक्ति च पूर्वनिपाते इति सूत्रं आधारीकृत्य उपसर्जनसंज्ञा दीयते, किन्तु पूर्वनिपातः भवति चेत् तत्र किं प्रयोजनम् इत्युक्ते उपसर्जनसंज्ञा यत्र भवति तत्र पूर्वनिपातः भवति इति वयं दृष्टवन्तः, किन्तु अत्र कीदृशप्रयोजनमस्ति अथवा उपसर्जनसंज्ञायाः आवश्यकता का, तस्य प्रयोजनं किम् इति चिन्तयामश्चेत् अत्र यथा महोदयेन उक्तं गोस्त्रियोरुपसर्जनस्य इति सूत्रस्य प्रसक्तिः नूतनसूत्रस्य प्रसक्तिः अस्ति, किन्तु अस्मिन् सन्दर्भे तस्य प्रसक्तिः किमर्थम् इति पश्यामश्चेत् एकविभक्तिचापूर्वनिपाते इति सूत्रेण उपसर्जनसंज्ञा भवति, तदनन्तरं तेन किं प्रयोजनम्, अन्यत् प्रयोजनं साधनीयं तेन, तत् किम् इति अधुना अत्र गोस्त्रियोरुपसर्जनस्य इति सूत्रेण वयं अवगन्तुं शक्नुमः। अत्र यथा महोदयेन उक्तं माला अतिमालः इति समस्तपदं स्वीकृत्य विग्रहवाक्यं रचयामश्चेत् तत्र नियतविभक्तिमत् पदं माला इति पदं नियतविभक्तिमत् पदं, किमर्थम् इत्युक्ते विग्रहवाक्यं अतिक्रान्तः मालाम्, अतिक्रान्तं मालाम्, अतिक्रान्तेन मालाम्, एतत् सर्वम् अग्रे आयास्यति। अत्र अतिमालः इत्यस्मिन् पदे माल इति पदं नियतविभक्तिमत् पदं, तत्र कथम् इत्युक्ते एकविभक्ति च पूर्वनिपाते इति सूत्रेण तस्य उपसर्जनसंज्ञा भवति, अपि च तत्पदं नियतविभक्तिमत् पदम् इति। गोस्त्रियोरुपसर्जनस्य इति सूत्रं किं वदति पुनः एकवारं वदतु महोदय, अत्र किं लिखितमस्ति?
गोस्त्रियोः उपसर्जनस्य गोस्त्रियोः एकशब्दः न पदं द्वयं, परन्तु गो योगः स्त्री पदं द्वयं कारणेन गोस्त्रियोः भवति, गोस्त्रियोः द्विवचनं अस्ति।
वदतु महोदय, वदतु।
अतः गोस्त्रियोः द्विवचनं अस्ति, परन्तु उपसर्जन सर्जनस्य
इत्युक्ते अत्र सूत्रस्य यद्यपि अत्र चिन्ता मास्तु महोदय, अत्र यद्यपि तस्य प्रसक्तिः नास्ति किन्तु सूत्रं किं वदति इति अस्माभिः ज्ञातव्यं। सूत्रं किं वदति, गोशब्दः वा स्त्रीलिङ्गशब्दः वा उपसर्जनसंज्ञकः शब्दः अस्ति चेत् तदन्तस्य प्रातिपदिकस्य ह्रस्वत्वं भवति। अत्र अतिमालः अतिमालः इत्यस्मिन् पदे माला इति पदं स्त्रीलिङ्गपदम् अस्ति इत्युक्ते तस्मिन् पदे अन्ते स्त्रीप्रत्ययः अस्ति इति कृत्वा माला इति पदं स्त्रीलिङ्गपदं भवति। अत्र अनेन सूत्रेण गोशब्दः अथवा स्त्रीलिङ्गशब्दः अस्ति अथवा अपि च तस्य पदस्य उपसर्जनसंज्ञा भवति चेत् तस्मिन् सन्दर्भे किं कार्यं भवति इत्युक्ते तदन्तपदस्य प्रातिपदिकस्य ह्रस्वत्वं, माला इति पदस्य प्रातिपदिकं माला एव, तस्य ह्रस्वत्वं भवति, तेन माल इति ह्रस्वरूपं सिद्ध्यति। इत्युक्ते गोस्त्रियोरुपसर्जनस्य इति सूत्रेण माला इति दीर्घ आकारान्तपदस्य ह्रस्वत्वं भूत्वा माल इति रूपं सिद्ध्यति, तदेव अत्र अस्य सूत्रस्य प्रयोजनम्। इत्युक्ते अत्र उपसर्जनं पूर्वप्रयोगः न भवति, किन्तु स्त्रीलिङ्गशब्दः वा अथवा गोशब्दः वा अस्ति चेत् उपसर्जनसंज्ञकपदम् अस्ति चेत् तस्य प्रातिपदिकस्य ह्रस्वत्वं
भगिनी गो शब्दः भवति चेत् तत्र प्रातिकं प्रातिपदिकं तु गो एव अस्ति, तस्य ह्रस्वत्वं किं भवति?
तत्र उदाहरणं स्वीकृत्य परिशीलनीयं भगिनी, गो गु भवति इति मम चिन्तनम्.
ओ अस्तु,
तत्र गु इति
गोकारः तु नित्यदीर्घः खलु.
आम्, अत्र प्रत्येकम् उदाहरणं स्वीकृत्य परिशीलयामश्चेत् इतोपि स्पष्टं भवति. अत्र तदेव अनन्तरम् अत्र सूर्यकुमारी भगिनी भवती पठतु
अग्रिमपरिचयं. प्रश्नः, यद् माला इति माला भवति तव अन्तिमप्रत्यये किं समये सम्पूर्ण समस्तपदं किं भवति तस्मिन्?
अस्माकम् उदाहरणम् अग्रे दत्तमस्ति. अतिमालः इत्यस्मिन् पदे अति इति एकं पदं, माला इति अन्यत् पदं, किन्तु द्वयोः मेलनं कृत्वा तत्र अतिमालः इति समस्तपदं निर्माणं भवति. तत्र प्रातिसमासः इति नाम्ना तत्पुरुषसमासप्रभेदः एकः अस्ति. तत्र कीदृशरीत्या अतिमालः इति पदं साधयामः, तत्र सोपानानि कानि, कानि कानि सूत्राणि कार्याणि कुर्वन्ति, एतत् सर्वं वयम् अद्य परिशीलयामः. तदर्थं भवान् एव पठतु महोदय, अत्र किमस्ति
भगिनि? एकनिमिष, मम प्रश्नद्वयम् अस्ति. संज्ञासूत्रम् अस्ति चेत् अपि अपवादसूत्रं भवितुं शक्नोति, नो चेत् अपवादसूत्रं विधिसूत्रस्य एव भवति?
विधिसूत्रं विधिसूत्रमेव अपवादसूत्रं भवितुम् अर्हति इति मम चिन्तनम्.
अस्तु, इदानीं तु वयं चर्चितवन्तः खलु उपसर्जनम् इति, तस्य अर्थं किम् इति ज्ञातुं सूत्रद्वयम् अस्ति. इत्युक्ते उपसर्जनं समासविधायकसूत्रे प्रथमानिर्दिष्टं पदं भवितुं शक्नोति, नो चेत् एकविभक्ति पदम् अपि भवितुं शक्नोति, खलु? द्वयमपि भवितुं शक्नोति, प्रथमानिर्दिष्टं पदम् अथवा एकविभक्तिपदम्.
अत्र अतिमालः इत्यस्मिन् पदे एतत् संज्ञासूत्रद्वयमपि तेषां प्रयोगः भवति. अत्र अति इति पदं पूर्वपदं किमर्थं भवति इति प्रश्नं पृच्छामश्चेत्, अतिपदं किमर्थं पूर्वपदम् इत्युक्ते तत्र एकविभक्ति क्षम्यतां प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रं कार्यं करोति, तदर्थमेव अति इति पदं पूर्वपदं भवति. द्वितीयसूत्रेण एकविभक्ति च पूर्वनिपाते इति सूत्रेण माल इति पदम् उत्तरपदं भवति. इत्युक्ते द्वयोः सूत्रयोः प्रसक्तिः अतिमालः इत्यस्मिन् पदे अस्ति.
अस्तु, एकं पदं पूर्वनिपातं भवति, माला अपि उपसर्जनं, किन्तु सर्जनं पदं, किन्तु तत् पदं परमागच्छति,
ह्रस्वं भवति. सरलरूपेण भवती सर्वम् उक्तवती भगिनी.
न, किन्तु भ्रमः अस्ति. इदानीम् अति कथम् उपसर्जनं भवति, तत्र तु सूत्रविधायकसूत्र समासविधायकसूत्रं द्रष्टव्यं खलु.
इत्युक्ते अत्र एतावता अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्मिन् पदे अस्ति. अत्र करपत्रं समापनीयं, तदर्थम् अग्रे गच्छेम. जगन्नाथ महोदय, भवान् पठतु.
अस्तु, कुत्र समाप्तं वा, विस्मृतवान् कुत्र आसम्?
तर्हि इत्यस्मात् आरभ्य.
तर्हि एकविभक्ति च पूर्वनिपाते इति सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति, परन्तु पूर्वनिपातः न भवति इति ज्ञातम्। यदि उपसर्जनसंज्ञकपदं गोशब्दः अथवा स्त्रीलिङ्गशब्दः अस्ति तर्हि गोस्त्रियोरुपसर्जनस्य इति सूत्रेण उपसर्जनसंज्ञकस्य शब्दस्य ह्रस्वादेशः भवति, परन्तु तस्य पूर्वनिपातनं न भवति। अनेन स्पष्टं यत् उपसर्जनस्य अन्यत् प्रयोजनम् अस्ति इति। अत्र अस्माकम् अवधानं गोस्त्रियोर् उपसर्जनस्य इति सूत्रस्य विषये नास्ति, परन्तु यत्र एकविभक्ति चापूर्वनिपाते इति सूत्रस्य कार्यं भवति तत्र उपसर्जनसंज्ञकस्य पूर्वनिपातः इति प्रयोजनं नास्ति, परन्तु तस्य अन्यत् प्रयोजनम् अस्ति। एक इति सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति, परन्तु पूर्वनिपातः न भवति।
एतत् सर्वं पुनरुक्तिः एव महोदय, अत्र एतत् सर्वं पूर्वम् एव लिखितमस्ति, अत्र किमपि नूतनं नास्ति। किञ्चित् स्वस्य वाक्यैः वदतु अत्र किमस्ति।
एतद् उपसर्जनं एवं किम् इति यदपि वयं सर्वे उक्तवन्तः, किन्तु मम मनसि न अवगतं। एकविभक्ति यत्र यस्मिन् अतिमाला इति एकमेव विभक्ति तत्र भवितुं शक्नोति।
अहं महोदय अहं प्रश्नान् पृच्छामि, किञ्चित् वदतु। एकविभक्ति च पूर्वनिपाते कीदृशं सूत्रं संज्ञासूत्रं संज्ञासूत्रम् इत्युक्ते अनेन सूत्रेण संज्ञा दीयते, कीदृशसंज्ञा दीयते, उपसर्जनसंज्ञा दीयते, कस्मिन् सन्दर्भे दीयते, यस्य पदस्य नियतविभक्तिकत्वम् अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति, किन्तु सूत्रे अपूर्वनिपाते इति पदमस्ति इति कारणतः पूर्वनिपातः तु न भवति। यदि पूर्वनिपातः न भवति चेत् किं भवति, किं भवति वदतु। अनेन सूत्रेण केवलं उपसर्जनसंज्ञा दीयते किन्तु पूर्वनिपातः न भवति, इत्युक्ते अन्यत् प्रयोजनं किमपि प्रयोजनम् अस्ति एव, तत् प्रयोजनं किम् इति अस्माभिः साधनीयम्।
उपसर्जन कथं भवति, कुत्र भवति इति,
इत्युक्ते पूर्वनिपातः तु न भवति, किमर्थम् अपूर्वनिपाते इति सूत्रे एव पदम् उक्तम् अस्ति। इत्युक्ते अत्र किं भवति इति अवगन्तुम् अत्र नूतनसूत्रस्य साहाय्येन गोस्त्रियोरुपसर्जनस्य इति सूत्रस्य आधारेण अत्र उपसर्जनसंज्ञायाः प्रयोजनम् अवगन्तुं शक्नुमः। प्रयोजनं किं, गोस्त्री ग्रोशब्दः स्त्रीशब्दः वा उपसर्जनसंज्ञकपदमस्ति चेत् तस्मिन् सन्दर्भे तस्य प्रातिपदिकस्य ह्रस्वादेशः भवति। तदेव अत्र
लिखितमपि भवति वा, न चेत् केवलं ह्रस्वादेशः तत्रापि मम भ्रमः।
केवलं प्रातिपदिकस्य ह्रस्वादेशः भवति,
तर्हि अतिमालः इति भवति चेत् तत्र पुल्लिङ्गशब्द न भवति वा तत्र?
अतिमालः इति पुंलिङ्गपदमेव, अतिमालः पुरुषः, पुरुषस्य पुरुषस्य विशेषणं भवति अतिमालः इति पदं, किन्तु अत्र माला इति पदं कथं ह्रस्वरूपं स्वीकरोति इति प्रश्नस्य उत्तरम् अनेन सूत्रेण दीयते, गोस्त्रियोरुपसर्जनस्य इति सूत्रेण एव तत्र उपसर्जनसंज्ञकस्य प्रातिपदिकस्य ह्रस्वत्वं इति विषयः.
महिला अस्ति चेत्
अहं न जानामि. महिला अस्ति चेत् अति अतिमाला इति एव भवति भगिनी. किमर्थमित्युक्ते तत्र प्रातिपदिकम् अतिमाल, समस्तपदस्य प्रातिपदिकम् अतिमाल.
अस्तु,
तत्र सुप्रत्ययं योजयामः पुंलिङ्गपदसाधनार्थं. तत्र एकविंशति सुप्रत्ययाः सन्ति. तत्र सुप्रत्ययस्य योजनेन अतिमालः इति पुंलिङ्गपदं पदनिर्माणं भवति. तदनन्तरं स्त्रीप्रत्ययस्य योजनेन अतिमाला
पुनः अतिमाला भवति,
भवितुं शक्नोति. इत्युक्ते तत्र स्त्रीप्रत्ययं प्रत्ययस्य योजनेन स्त्रीलिङ्गपदमपि साधयितुं शक्नुमः.
अस्तु,
किन्तु अत्र
कर्मकारः तु कर्मकारा न भवति, तत्र कर्मकारी भवति. तत् कथं
तत् भिन्नं पदं महोदय. अत्र अस्य अतिमालः इति पदस्य प्रसक्तिः एव अत्र अस्ति. तस्य चिन्तनमेव वयं कुर्मः अद्य. अग्रिमे परिच्छेदे, द्वितीयपरिच्छेदे किं दत्तमस्ति?
अत्र अस्माकम् अवधानं गोत्रयोर् उपसर्जनस्य इति सूत्रस्य विषये नास्ति, परन्तु यत्र एकविभक्ति च अपूर्वनिपाते इति सूत्रस्य कार्यं भवति, तत्र उपसर्जनसंज्ञकस्य पूर्वनिपातः इति प्रयोजनं नास्ति, परन्तु तस्य अन्यत् प्रयोजनम् अस्ति.
अन्यत् प्रयोजनं किम् उक्तम्?
अन्यत् प्रयोजनम् इति तस्य ह्रस्वत्वं, प्रातिपदिकस्य ह्रस्वत्वं भूत्वा पुल्लिङ्गरूपं भवति.
तदेव तस्य प्रयोजनम् इत्युक्ते गोस्त्रियोरुपसर्जनस्य सूत्रस्य प्रसक्तिः. अत्र किमर्थम् इत्युक्ते तत्र कथम् अतिमालः इत्यस्मिन् पदे ह्रस्वत्वं साधितम् अनेन सूत्रेण, तस्य अवगमनार्थम् अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति. उत्तमम्. अनन्तरम् अत्र बालसुब्रह्मण्य महोदय, भवान् पठतु अग्रे.
भगिनि एकः प्रश्नः, क्षम्यतां भगिनि, इदानीं तु किमर्थं नो चेत् किं कार्यं करोति इति इत्युक्ते गोशब्दः स्त्रीशब्दस्य प्रातिपदिकस्य स्वं करोति, किन्तु अति कङ्कणम् अस्ति चेत् तत्तु स्त्रीशब्दः नास्ति, तत्र किमपि कार्यं नास्ति. किम्
किमपि कार्यं नास्ति,
किन्तु कङ्कणम् अपि एतस्मिन् सूत्रे एव क्षम्यतां सूत्रेण एव उपसर्जनं भवति.
इत्युक्ते प्रत्येकम् अत्र समस्तपदनिर्माण अवसरे तत्र प्रत्येकं पदस्य विषये विशिष्टसूत्राणि भवन्ति भगिनि. अत्र सर्वत्र एकमेव कार्यं भवति इति न वक्तुं शक्यते. तत्र पदं दृष्ट्वा पदनिर्माणावसरे तत्र कानि कानि सूत्राणि आवश्यकानि इति प्रत्येकं पदं स्वीकृत्य परिशीलनीयं भवति.
इत्युक्ते अतिमाला भवितुं शक्नोति समासः, किन्तु अतिकङ्कणं प्रायः समासः न भवति इति वा?
तथा नास्ति, किन्तु चिन्तनीयं तस्मिन् विषये. अनन्तरम् अत्र बालसुब्रह्मण्य महोदय पठतु. वदतु
भगिनी. अत्र गोस्त्रियोरुपसर्जनस्य इति सूत्रेण दीर्घ आकारान्त वा दीर्घ ईकारान्त स्त्रीलिङ्गपदम् अस्ति चेत् तयोः एव प्रातिपदिकं ह्रस्व भवति. दीर्घ ऊ अपि भवितुम् अर्हति भगिनी स्त्रीलिङ्ग
भवितुम् अर्हति. अत्र
वधु अस्ति खलु,
इत्युक्ते अत्र निकषा अस्ति, तत्र कण्डिशन् अस्ति. कण्डिशन् किम् इत्युक्ते गोशब्दः वा अथवा किमपि स्त्रीलिङ्गपदम्. किन्तु तस्य किमपि स्त्रीलिङ्गपदं भवेत्, किन्तु तस्य पदस्य उपसर्जनसंज्ञा भवेत्. अत्र पठतु महोदय.
एकविभक्ति चापूर्वनिपाते इति सूत्रस्य उदाहरणं पश्यामः. यथा अतिमालः इति प्रादि तत्पुरुषसमासः अस्ति. प्रादिसमासः तत्पुरुषसमासेषु अन्यतमः अस्ति, वयं जानीमः. विवक्ष अनुगुणम् अतिक्रान्तः मालाम्, अतिक्रान्तेन मालाम्, अतिक्रान्ताय मालाम्, अतिक्रान्तात् मालाम्, अतिक्रान्तस्य मालाम् इत्यादीनि विग्रहवाक्यानि सम्भवन्ति. एतेषु विग्रहवाक्येषु मालाम् इति पदं द्वितीयविभक्त्याम् एव निश्चितरूपेण अस्ति. सर्वत्रापि एवमेव. अति इति अव्ययम् अतिक्रान्तः इत्यस्मिन् अर्थे मालाम् इति द्वितीयान्तपदेन सह समस्यते. सो मालाम् अति इति अव्ययं मालाम् इति पदेन समासं करोति.
किञ्चित् वदतु महोदय, अत्र उदाहरणं पश्यामः. इत्युक्ते अतिमालः इति समस्तपदं स्वीकृत्य अद्य अधुना चिन्तनं कुर्मः. अत्र अतिमालः इत्यस्मिन् पदे प्रादितत्पुरुषसमासः अस्ति इति वयं जानीमः. प्रादिसमासः इत्युक्ते भवान् यद् जानाति वदतु. वयं जानीमः एव द्वाविंशति उपसर्गाः सन्ति. तत्र तेषु अन्यतमः अति इति पदमस्ति. तत्र सर्वे उपसर्गाः मिलित्वा प्रादयः इति वदामः. प्रादिसमासप्रसङ्गे तत्र प्रादयः आयान्ति. इत्युक्ते उपसर्गः पूर्वपदं भवति साधारणतया. अस्मिन् प्रसङ्गे अति इति पदं न केवलम् अव्ययपदम्, अपि च उपसर्गः अपि. उपसर्गाः एव प्रादयः. तत्र एकं संज्ञासूत्रमस्ति. संज्ञासूत्रेण उपसर्गाः प्रादयः इति संज्ञां प्राप्नुवन्ति. अपि च अत्र अतिक्रान्तः मालाम् इति वदामश्चेत् तत्र समस्तपदं किम्? अतिमालः इत्युक्ते अतिक्रान्तः मालाम् इति विग्रहवाक्यं, किन्तु समस्तपदम् अतिमालः. अतिक्रान्तेन मालाम्
अत्र अति इति उपसर्गं यद्यपि
अत्र मम प्रश्नः तु अतिक्रान्तेन मालाम् इति विग्रहवाक्यं दत्तमस्ति, किन्तु तत्र समस्तपदं किं भवति? समस्तपदस्य रूपं किं भवति अथवा विभक्तिः किं? विभक्तिपरिवर्तनं कृत्वा वक्तव्यम्. अतिक्रान्तेन मालाम् इति वदामश्चेत् तत्र समस्तपदस्य रूपं किम्? अतिमालेन. अतिमालेन इति वक्तुमिच्छामश्चेत्, पृथक्तया व्यस्तप्रयोगं कृत्वा वक्तुमिच्छामश्चेत् अतिक्रान्तेन मालाम्. अतिक्रान्ताय मालाम् अस्ति चेत् अतिमालाय. अतिक्रान्तः अत्र एव दत्तमस्ति, लैक् एक्सीडेड् आर् हु हेस् क्रास्ड् द ब्यूटि आफ् नेक्लेस् इति दत्तम्.
अतिमालः इत्युक्ते हि हु हेस् क्रास्ड् द ब्यूटि आफ् नेक्लेस्, किन्तु अतिक्रान्तः इत्युक्ते
अतिक्राम्यते, लैक् किं वदामः, सूपर् सीड्स् इत्यस्मिन् अर्थे
प्रकाशन् अति श्रेष्ठ प्रकाश
अत्र अतिक्रान्तात् मालाम् इति पदमस्ति, तत्र समस्तपदं किं भवति? अतिमालात् भवति, अतिक्रान्तस्य मालां तत्र उत्तमम् उत्तमं भगिनि. इत्युक्ते अत्र अतिमालः इति पदम् अकारान्त पुंलिङ्गपदं रामशब्दवत् अस्ति इति कृत्वा अत्र यद्यपि विग्रहवाक्यानि लिखितानि किन्तु समस्तपदस्य रूपम् इत्युक्ते समस्तपदस्य विभिन्न विभक्तिरूपं योजयित्वा अत्र लिखितमस्ति. अतिमालः, अतिमालाम्, अतिमालम्, अतिमालेन, अतिमालाय, अतिमालात्, अतिमालस्य इत्यादीनि विग्रहवाक्यानि भवन्ति. विग्रहवाक्येषु मालाम् इति पदं द्वितीयाविभक्त्यन्तं पदं निश्चितरूपेण दृश्यते, अस्ति. तदर्थमेव वदतु.
वयं पूर्वं दृष्टवन्तः पूर्वनिपाते अस्ति चेत् तत्र अन्नो चेत् अपूर्वनिपाते अस्ति चेत् न पूर्वनिपातः तस्मिन् भवति. अत्र तेन तस्मात् न भवति किं विग्रहवाक्यम्?
अत्र तथापि भवितुम् अर्हति भगिनि. अत्र पश्यतु, अतिक्रान्तेन मालाम् इति पश्यामश्चेत् विग्रहवाक्यं पश्यामश्चेत् अतिमालेन इति पदस्य विग्रहवाक्यम् अतिक्रान्तेन मालां. भिन्नरीत्या वक्तुमिच्छामश्चेत् अतिक्रान्तः मालां तेन इति अपि साधु.
अतिक्रान्तेन
अत्र तृतीयाविभक्त्यन्तं समस्तपदम् अतिमालः इति पदस्य तृतीयान्तं रूपम् अतिमालेन. तस्य विग्रहवाक्यम् अत्र किं दत्तमस्ति? अतिक्रान्तेन मालाम्. तस्मिन् अर्धे एव भिन्नरीत्या विग्रहवाक्यं वक्तुम् इच्छामश्चेत् अतिक्रान्तः मालां तेन
वक्तुं शक्नुमः. धन्यवादः.
तदपि भगिनी अग्रे लिखितवती. उत्तमम्. अग्रे पठतु महोदय, भवानेव पठतु.
नास्ति भगिनि,
क्षम्यतां भगिनि.
अतिमालेन उक्तं, तस्य विग्रहः भवति मालाम् अतिक्रान्तेन उक्तम्, एवं
वा? अत्र अस्मिन् परिच्छेदे इतोपि किमस्ति महोदय?
अस्मिन् परिच्छेदे अतिमालाय देहि, तस्य विग्रहः भवति मालाम् इति निश्चितः, अतिक्रान्ताय देहि. सो मालाम् अतिक्रान्ताय देहि
इत्युक्ते इत्युक्ते अत्र अतिक्रान्ताय मालाम् इति विग्रहवाक्यम् अतिमालाय इति पदस्य कृते दत्तम् अस्ति. समस्तपदस्य रूपं यदि एकवारं वयं समस्तपदनिर्माणं कुर्मः तस्य पदस्य विभक्तिः रूपं परिवर्त्य यथा इच्छामः तादृशरीत्या वयं तस्य उपयोगं कर्तुं शक्नुमः. तदर्थमेव अत्र अतिक्रान्ताय मालाम् इति चतुर्थ्यन्तं रूपं वक्तुमिच्छामश्चेत् अतिमालाय इति पदस्य विग्रहवाक्यम् अतिक्रान्ताय मालाम्. तावदेव. अत्र
भगिनि
वदतु भगिनि.
अन्यतमः अर्थं किं भगिनि?
अन्यतमः
समासः तत्पुरुषसमासेषु अन्यतमः अस्ति.
अन्यतमः अस्माकं कक्षायां बहवः छात्राः सन्ति, तेषु अन्यतमा अरुणा भगिनी इति वा. अस्माकं कक्षायां बहवः छात्राः सन्ति, तेषु अन्यतमा, वन् अमाङ्ग् देम्.
This is different in among them.
वन् अमाङ्ग् देम्
वन् अमाङ्ग्
तेषु अन्यतमा अरुणा भगिनी इति वदामश्चेत् तस्मिन् वाक्ये तत्र अन्यतमा अत्र तत्पुरुषसमासेषु बहवः प्रभेदाः सन्ति तेषु अन्यतमः प्रभेदः एव प्रादिसमासः महोदय वदतु अत्र
अधिमालाय देहि एवं वक्तुं शक्यते किल महोदय मालाम् अधिक्रान्त तस्मै
अत्र किञ्चित् जाटिल्यमस्ति महोदय अत्र किञ्चित् जाटिल्यमस्ति अत्र अग्रे इतोपि वयं पठिष्यामश्चेत् इतोपि अस्माकम् अवगमनं सम्यक् भवति तदर्थम् अग्रिमपरिच्छेदं पठतु
एवं विग्रहवाक्यानि लिखामः चेत् तदा अतिक्रान्त इति शब्दस्य विभक्तिः परिवर्त्यते किन्तु मालाम् इति पदं सर्वदा द्वितीयविभक्तौ एव भवति मालाम् इत्येव एव विभक्तिता विभक्तिमत् पदम् अस्ति यतोहि तस्य विभक्तेः परिवर्तनं न भवति सर्वेषु विभक्तिषु तस्य पदस्य विभक्तिः न परिवर्त्यते तत्पदं नियतविभक्तिमत् एकविभक्तिमत् पदम् अस्ति अतः तस्य उपसर्जनस्य क्षम्यताम् तस्य उपसर्जनसंज्ञा भवति एकविभक्ति चापूर्वनिपाते इति सूत्रेण
अत्र महोदय तथा न अत्र माला इति पदं नियतरूपेण तत् परिच्छेदं पठितवान् वा अत्र अत्यादयः क्रान्तादर्थे वदतु अत्र माला इति पदम् अग्रिमपरिच्छेदं परिशीलयामश्चेत् तत्र माला इति पदं नियतरूपेण द्वितीयाविभक्त्याम् एव भवति तस्मिन् किम् अस्ति वदतु
तच्चन परिवर्तनं न भवति मालां सर्वदा द्वितीयविभक्ते एव तिष्ठति एकविभक्ति च अपूर्व निपाते इति सूत्रेण परिवर्तनं न भवति
न भवति अत्र अत्र गीताञ्जलिभगिनी भवत्याः प्रश्नः कः
भगिनी एकवार पुनः प्रादयः इति विषये वदतु अहं न अवगच्छामि
अत्र प्रादिसमासप्रसङ्गे वयं पुनः चर्चयिष्यामः भगिनि तत्र चिन्ता मास्तु प्रादिसमासः इति एकः प्रभेदः अस्ति तस्मिन् सन्दर्भे अत्र शोभनः पुरुषः सुपुरुषः शुभाषितम् इत्यादीनि पदानि तत्र प्रादिसमासयुक्तपदानि वयं परिशीलयिष्यामः तस्मिन् सन्दर्भे इतोपि तस्मिन् विषये चर्चयिष्यामः अद्य अत्र अस्मिन् करपत्रे किम् अस्ति इति एकवारं पश्यामः अत्र अत्र पूर्णेन्दु महोदय एतत् परिच्छेदं पुनः एकवारं पठित्वा किञ्चित् प्रतिपादयतु माला इति पदं
भगिनि प्रादिसमासः कुत्र अस्ति
तत्पुरुषसमासस्य प्रभेदः
न अस्मिन् परिच्छेदे कुत्र अस्ति
अत्र उपरि एकं वाक्यमस्ति अतिमालः इति प्रादितत्पुरुषसमासः अस्ति प्रादिसमासः तत्पुरुषसमासेषु अन्यतमः इति लिखितमस्ति पूर्णेन्दु महोदय भवान् पठतु अत्र
आं भगिनि माला इति पदं नियमितरूपेण द्वितीयविभक्त्याम् एव भवति यतोहि अत्यादयः क्रान्त्याद्यर्थे द्वितीयया इति वार्तिकेन अत्यादयः क्रान्त्याद्यर्थे द्वितीयान्तेन समर्थेन सुवन्तेन सह समस्यते तत्पुरुषसमासः च भवति अत्र समासविधायकं सूत्रं नास्ति परन्तु अनेन वार्तिकेन समासः विधीयते अनेन वार्तिकेन अति इति अव्ययं मालाम् इति द्वितीयान्तेन सह समस्यते अतः एव माला इति पदं द्वितीयायाम् एव भवति सर्वेषु विग्रहवाक्येषु अतिमालः इति तत्पुरुषसमासः भवति अत्र समासस्य अश्वपदविग्रहवाक्यम् अस्ति इत्यतः अयं समासः नित्यसमासः नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः वर्ण्यते अतः अश्वपदविग्रहः इति उच्यते माला इति पदं नियमितरूपेण द्वितीयाविभक्त्याम् एव भवति यतोहि अत्यादयः क्रान्ताद्यर्थे द्वितीयया इति वार्तिकेन अत्यादयः क्रान्ताद्यर्थे द्वितीयान्तेन समर्थेन सुबन्तेन सह समस्यते तत्पुरुषः समासः च भवति उपरि वयं यत् उदाहरणानि पश्यन् इत्युक्ते अतिक्रान्तः मालाम् अतिक्रान्तेन मालाम् अतिक्रान्ताय मालाम् उदाहरणे समास तु अतिमालः इति समासः तत्र माला इति पदं नियतरूपेण द्वितीयाविभक्त्याम् एव अस्ति तत् समाससाधयितुं किमपि तत्पुरुषसमासः एव भवति परन्तु तत्पुरुषसमासः कथं भवति अति इति अव्ययपदः द्वितीयान्तेन समर्थेन सुबन्तेन सह समस्यते अतः तत्पुरुषसमासः भवति परन्तु तत् तत्पुरुषसमासः साधयितुं किमपि विधायकसूत्रं नास्ति अतः अत्यादयः क्रान्त्याद्यर्थे द्वितीयया इति वार्तिकेन तत् समास वयं कर्तुं शक्य तत् समासः साध्यते अत्र समासविधायकं सूत्रं नास्ति अनेन वार्तिकेन एव समासः विधीयते अनेन वार्तिकेन अति इति अव्ययं मालान् इति द्वितीयान्तेन सह समस्यते अतः एव माला इति पदं द्वितीयायाम् एव भवति सर्वेषु विग्रहवाक्येषु यानि विग्रहवाक्यानि साधनीयानि तेषु सर्वेषु विग्रहवाक्येषु माला इति पदस्य माला इति पदं द्वितीया विभक्त्याम् एव भवति सर्वदा द्वितीयविभक्त्याम् एव भवति अतिमालः इति तत्पुरुषः समासः भवति अत्र समासस्य अश्वपदविग्रहवाक्यम् अस्ति अत्र समासे तु अति इति पदमस्ति माला इति पदमस्ति परन्तु समासघटक विग्रहवाक्ये तु किं भवति अतिक्रान्तेन मालाम् अतिक्रान्तः मालाम् अतिक्रान्ताय मालाम् अतिक्रान्तात् मालाम् अतिक्रान्तस्य मालाम् इति एतानि पदानि विग्रहवाक्ये भवितुमर्हति ते सर्वे अश्वपदविग्रहवाक्यम् अस्ति इत्यतः अयं समासः नित्यसमासः यतोहि अश्वपदविग्रहवाक्यं कर्तुं शक्यते न भगिनि परिशीलनं करणे किञ्चित्
उत्तमं महोदय तदेव तावदेव अत्र वयं पूर्वमेव दृष्टवन्तः अश्वपदविग्रहवाक्यम् इत्युक्ते समासघटकानि पदानि विहाय अन्यैः पदैः विग्रहवाक्यं यदुच्यते तदेव अश्वपदविग्रहवाक्यम् अत्र अतिमालः इति समस्तपदं किन्तु अतिक्रान्तः मालाम् इति वदामः तत्र क्रान्त इति पदं कुतः आगतः तदर्थमेव इत्युक्ते समासघटकानि पदानि विहाय अत्र विग्रहवाक्यं वदामः इति कृत्वा तस्य नाम अश्वपदविग्रहवाक्यं यत्र अश्वपदविग्रहवाक्यं भवति तत्र सर्वदा नित्यसमासः भवति इत्युक्ते तत्र समासः नित्यरूपेण भवति विकल्पेन वक्तुं न शक्यते इत्युक्ते पृथक्तया व्यस्तप्रयोगं कृत्वा विग्रहवाक्यं वक्तुं न शक्यते तदर्थमेव अत्र नित्यसमासः भवति यथा भवता उक्तम् अत्र विधायकसूत्रं नास्ति किन्तु अनेन वार्तिकेन कार्यं भवति अत्यादयः क्रान्तादर्ध्ये द्वितीयया इति पदमस्ति अत्र द्वितीयया इति पदमस्ति इति कृत्वा अत्र अस्मिन् समस्तपदे मालाम् इति पदं द्वितीयान्तं पदम् अस्ति अपि च नियतविभक्तिमत् पदम् अस्ति अत्यादयः इति पदमस्ति तस्मिन् अति आदयः तत्र आदयः इति पदं प्रथमाविभक्ति बहुवचनं पदम् अत्यादयः इति प्रथमाविभक्ति बहुवचनं पदम् अस्ति इति कृत्वा तत्र प्रथमानिर्दिष्टं समासोपसर्जनम् इति सूत्रेण विधायकसूत्रे अत्र यद्यपि तत् वार्तिकमेव वार्तिके प्रथमान्तं पदं किम् अत्यादयः इति पदं प्रथमान्तं पदमस्ति तदर्थमेव प्रथमानिर्दिष्टं समासोपसर्जनम् इति सूत्रेण अतिपदम् अतिपद तस्य प्रथमाविभक्त्यन्तपदस्य उपसर्जनसंज्ञा भवति अपि च उपसर्जनं पूर्वम् इत्यनेन तस्य पूर्वप्रयोगः भवति इति कृत्वा अति इति पदं पूर्वपदं भवति अस्मिन् समस्तपदे तदेव अत्र लिखितमस्ति अस्मिन् अग्रिमपरिच्छेदे उत्तमम् अत्र सूर्यकुमारी भगिनी भवती पठतु अग्रिमपरिच्छेदम्
अतिमालः गच्छति
तत्र विग्रहवाक्यस्य दशायां
विग्रहवाक्यस्य दशायाम् अर्थम् अवलम्ब्य अतिक्रान्त इति प्रातिपदिकस्य विभक्तेः परिवर्तनं भवति अस्मिन् वार्तके अत्यादयः इति पदं प्रथमान्तं पदम् अस्ति अतः प्रथमानिर्दिष्टं समासः समास उपसर्जनम् इति सूत्रेण अत्यादयः इति पदस्य उपसर्जनसंज्ञां भूत्वा उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति अतः एव समासे अति इति अव्ययम् एव समासे पूर्वं तिष्ठति विग्रहवाक्यरूपेण अतिक्रान्त इति प्रातिपदिकस्य विभक्तेः परिवर्तनं भवति
अत्र टु प्रूव् दट् वन् लैक् अस्य निर्धारणार्थं किञ्चित् वदतु विग्रहवाक्यस्य दशायाम् अर्थम् अवलम्ब्य अतिक्रान्त इति प्रातिपदिकस्य विभक्तिपरिवर्तनं भवति इत्युक्ते
अतिक्रान्त इति प्रातिपदिकस्य विभक्तेः परिवर्तनं भवति न तु प्रातिपदिकस्य विभक्ते
अत्र प्रातिपदिकं किम्
प्रातिपदिकं अतिमाला
अतिमाला उत्तमम् अतिमाला इति प्रातिपदिकं स्वीकृत्य विभक्तिम् आश्रित्य अर्धम् अवलम्ब्य तस्य विभक्तिपरिवर्तनं कृत्वा भिन्नभिन्नविग्रहवाक्यानि लिखित्वा भिन्नानि वाक्यानि लेखितुं शक्नुमः तदर्थमेव अग्रे अतिमालं पश्य अतिमालेन उक्तम् अतिमालाय देहि ईदृशानि वाक्यानि इत्युक्ते अतिमाला समस्तपदस्य विभक्तिपरिवर्तनं कृत्वा
अतिमाला विग्रहवाक्यं प्रातिपदिकम्
अस्माकम् इच्छानुसारम् इत्युक्ते अत्र अस्माकं विवक्षानुगुणं वाक्यरचनां कर्तुं शक्नुमः विभक्तिपरिवर्तनं कृत्वा
सन्दर्भेन प्रसङ्गेन
अग्रिमं वाक्यं
अतिमाला
वदतु भगिनि
अतिमालः गच्छति तस्य विग्रहः भवति मालाम् अतिक्रान्तः गच्छति
न भगिनि अत्र पूर्वस्मिन् परिच्छेदे इतोपि किमस्ति अस्मिन् वार्तिके अत्यादयः इति प्रथमान्तं पदमस्ति सः तु
अत्यादयः इति पदं प्रथमान्तं पदम् अस्ति.
अतः
आदयः इति पदं प्रथमान्तं प्रथमान्तम्
अत्र प्रथमं वाक्यं वयं दृष्टवन्तः, किन्तु द्वितीये वाक्ये तत्र मुख्यविषयः कः इत्युक्ते वार्तिकस्य आधारेण किं भवति अत्र अत्यादयः क्रान्तादर्थे द्वितीयया
भवति.
इतोपि किञ्चित् चिन्तनीयम्
अत्यादयः क्रान्तर्थे द्वितीयन्तेन समर्थेन सुबन्तेन सह समास्यते तत्पुरुषसमासे भवति.
अत्र गीताञ्जलि भगिनी अत्र द्वितीयं वाक्यं स्वीकृत्य किञ्चित् वदतु. अस्मिन् वार्तिके अत्यादयः इति पदं प्रथमान्तं पदमस्ति इति कारणतः
अस्मिन् वार्तिके अत्यादय इति पदं प्रथमान्तं पदम् अस्ति, अतः प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अत्यादयः इति पदस्य उपसर्जनसंज्ञा भूत्वा उपजनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपात तत्र वार्तिके अत्याद यदि इति पदं स्वीकृत्य अत्र प्रथमनिर्दिष्टं समास उपसर्जनं सूत्रेण इति पदस्य उपसर्जनं संज्ञा भवति तत् अभवत् तत् पदं पूर्वं पूर्वनिपात भवति इति.
अत्र किञ्चित् सुमन् भगिनी किञ्चित् इतोपि प्रतिपादयतु स्पष्टतया. अत्र मुख्यविषयः अस्ति किम् इत्युक्ते अत्र अतिमालः इति समस्तपदे अति इति पदं किमर्थं पूर्वपदं भवति इत्यस्य उत्तरं मिलति.
अस्तु प्रयत्नं करोमि. अत्यादयः क्रान्तादयार्थे द्वितीयया तत्तु समासविधायकसूत्रं भवति किम्?
तत्र समासविधायकसूत्रं नास्ति किन्तु वार्तिकमस्ति, वार्तिकेन एव कार्यं भवति.
अस्तु इदानीम् अत्यादयः अति आदयः अस्ति इत्युक्ते अति एट्सेट्रा अस्ति तत्तु प्रथमाविभक्ति अस्ति. इदानीं प्रथमनिर्दिष्टं समास उपसर्जनं सूत्रेण तत् यतः तद् प्रथमाविभक्त्यां भवति तस्य उपसर्जनस्य संज्ञा भवति.
तदेव अत्र प्रामुख्यम् इत्युक्ते अत्यादयः अति आदयः अति एट्सेट्रा भगिनी उक्तवती. अत्र तत्पदं तस्मिन् वार्तिके प्रथमान्तं पदमस्ति इति कृत्वा प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण तस्य उपसर्जनसंज्ञा भवति, अपि च उपसर्जनं पूर्वं सूत्रेण तस्य पूर्वप्रयोगः भवति. तदर्थमेव अत्र अति इति पदं पूर्वपदं भवति. तदर्थमेव
भगिनी अति अर्धः समासपदे अत्यादयः
अति आदयः इत्युक्ते तत्र कानिचन इतोपि अन्यानि पदानि सन्ति. न केवलम् अति, अन्यानि पदानि अपि सन्ति, तेषां प्रयोगसन्दर्भे तत्र प्रथमान्तं पदम् अस्ति इति कारणतः प्रथमसूत्रेण उपसर्जनसंज्ञा दीयते, अपि च विधिसूत्रेण अतिपदस्य पूर्वप्रयोगः भवति इति अत्र उक्तमस्ति. अधुना अतिमालः इति पदं स्वीकृत्य वाक्यानि लिखितानि अत्र. अस्माकम् अवगमनार्थम्
एकः प्रश्नः भगिनि, अत्र अतिमाल इति प्रातिपदिकम् अस्ति, प्रातिपदिकम् अस्ति चेत् भिन्नानि रूपाणि भवितुम् अर्हति, किन्तु अतिमाल इति लिङ्गं किं, पदस्य लिङ्गं किं भगिनि प्रातिपदिकस्य?
प्रातिपदिकस्य लिङ्गं न भवति, प्रातिपदिकस्य अनन्तरं सुप्रत्ययस्य योजनेन पदं भवति।
तत्तु सत्यं, किन्तु वयं सर्वाणि रूपाणि ज्ञातुं पेटर्न्स् पश्यामः न, अकारान्त पुंलिङ्ग् अस्ति चेत्, आकारान्त स्त्रीलिङ्ग् अस्ति चेत्,
इदं पदमपि अतिमाल इति अकारः अन्ते अस्ति इति कृत्वा रामशब्दवत् यथा पूर्वं सरला भगिन्या उक्तं, तत्र अतिमाल इति पदम् अकारान्त पदं भवति। एकविंशति सुप्रत्ययाः सन्ति, तत्र सुप्रत्ययस्य योजनेन पदं भवति अतिमालः इति प्रथमा विभक्ति एकवचनरूपं भवति।
अत्र दशायाम् अत्र कथम् अर्थ दशायाम् इत्युक्ते इन् टेन्
विग्रहवाक्य कथनवेला इत्युक्ते यदा वयं विग्रहवाक्यं वदामः तदा अर्धम् आधारीकृत्य अर्धम् अवलम्ब्य वदतु भगिनि।
तस्याः प्रश्नः आसीत् दश इत्युक्ते
अष्ट सप्त विभक्ति किन्तु तदनं दश कथम् आगच्छति?
दश इत्युक्ते फेज् लिक् आर् वैल् वैल् क्रियेट् वदतु इन् द प्रोसेस् ड्यूरिङ्ग् द प्रोसेस्
ओ ओ दट् दश नम्बर् नाट् ओ अस्तु
क्षम्यतां भगिनि अस्मि वार्तिके वार्तिके मीन् इत्युक्ते किं वार्तिके
वार्तिकम् इत्युक्ते विधिसूत्रं नास्ति, वार्तिकेन अत्र कार्यं भवति इति लिखितमस्ति।
वार्तिके इत्युक्ते किं अस्मिन् वार्तिके अत्यादयः इति पदं वार्तिके
वार्तिके इति पदं सप्तम्यन्तं रूपं वार्तिकं वार्तिकानि
मीनिङ्ग्
सूत्रम् इव विधिसूत्रमिव सूत्रमेव, किन्तु सूत्रम् इति न वदामः, किन्तु वार्तिकम् इति भिन्नं पारिभाषिकपदम् अस्ति एव, साधारणतया विधिसूत्रेण कार्यं क्रियते, किन्तु अत्र वार्तिकेन कार्यं भवति। अग्रे गच्छामः अनन्तरं भवती एव पठतु भगिनि अग्रे। नो चेत् अत्र का पठति, अत्र शर्मिला भगिनी भवती पठतु। नो चेत् अरुणा भगिनी भवती पठतु।
किं परिच्छेदं भगिनि?
अतिमालः
अतिमालः he who has crossed the beauty of a necklace अतिमालः गच्छति, तस्य विग्रहः भवति मालाम् अतिक्रमति। एतत् विग्रहवाक्यम् अस्वपदविग्रहवाक्यम् अस्ति यतोहि अतिमालाम् इति विग्रहवाक्यं वदामः चेत् अर्थबोधः न जायते, अतः विग्रहवाक्ये अतिक्रान्तः इति पदस्य प्रयोगः क्रियते। अत्र वदति अतिमालाः गच्छति, विग्रहवाक्यं कथं भवति इति चेत् मालाम् अतिक्रान्तः गच्छति इति विग्रहवाक्यं, परन्तु विग्रहवाक्यम् अश्वपद अश्वपदविग्रहवाक्यम् अस्ति चेत् अतिमालामिति चेत् अत्र अर्थबोधः न भवति, ततः विग्रहवाक्ये अतिक्रान्तः इति पदस्य प्रयोगः क्रियते. किमर्थम् अति इति तदत् अनन्तरम् अतिक्रान्तम् इति वदति इति प्रश्न सङ्ख्या आगच्छति. अत्र विचारः भवति केवलम् अतिमालाम् इति विग्रहवाक्य वदामः चेत् अर्थबोधः न जायते, तथैव विग्रहवाक्ये अतिक्रान्तः मालाम् अतिक्रान्तः गच्छति इति विग्रहवाक्यस्य एव सम्यक् बोधकबोध भवति.
इत्युक्ते अत्र यद्यपि केवलम् अत्र अश्वपदविग्रहवाक्यं किमर्थमस्ति इति प्रश्नः उदेति एव. इत्युक्ते अत्र क्रान्त इति पदं कुतः आगतः, तस्य पदस्य आवश्यकता किम् इति पश्यामश्चेत् केवलम् अतिमालाम् इति वदामश्चेत् अस्माकं अर्थबोधः न भवति इति कृत्वा अत्र अतिक्रान्तः मालाम् इति वदामश्चेत् सम्यक् तस्य अर्थम् अवगन्तुं शक्यते. तदर्थमेव अत्र अश्वपदविग्रहवाक्यं लिखित्वा वक्तव्यं भवति. अत्र वाक्यमस्ति अतिमालः गच्छति इति वाक्यम्. अतिमालः गच्छति इत्युक्ते किं, कः गच्छति अतिमालः गच्छति इत्युक्ते?
He who has crossed the beauty of a necklace.
अतिमालः इत्युक्ते मालाम् अतिक्रान्तः पुरुषः, सः गच्छति इति अर्थः. अग्रे अपि पठतु भगिनि अग्रिमानि वाक्यानि.
अतिमालं पश्य, तस्य विग्रहः भवति मालाम् अतिक्रान्तं पश्य. मालाम् अतिक्रान्तः तम् इति अपि वाक्यं शक्यते. अत्र तम् इति सर्वनामशब्दस्य अन्वयः अतिक्रान्तः इति पदेन सह भवति, अतः अतिक्रान्तम् इति अर्थः निष्पद्यते. एवमेव अन्यत्रापि अहं न जानामि. अवगतम्. अतिमालं पश्य, विग्रहवाक्यं मालाम् अतिक्रान्तं पश्यामि
इत्युक्ते अत्र पूर्वस्मिन् वाक्ये प्रथमाविभक्त्यन्तं रूपं स्वीकृत्य वाक्यं लिखितम् अतिमालः गच्छति. किन्तु अस्मिन् वाक्ये कर्मपदम् इव तस्य प्रयोगः कृतः. इत्युक्ते अतिमालं पश्य, अत्र दृष् धातुः सकर्मकधातुः अस्ति इति कृत्वा अत्र वाक्यनिर्माणम् अस्माकं विवक्षानुगुणं कथं लिखामः, अतिमालं पश्य त्वम् इति वाक्यम् अस्ति. तत्र अतिमालम् इति द्वितीयाविभक्त्यन्तं रूपं दत्तमस्ति. किन्तु अत्र विग्रहवाक्यं भिन्नरीत्या कथं वक्तव्यं परिवर्त्य?
अतिक्रान्तं तम् इति अपि वक्तुं शक्यते.
अत्र अतिक्रान्तं पश्य इत्युक्ते मालाम् इति पदस्य विभक्तिः तु सर्वदा द्वितीयाविभक्तिः एव भवति. किन्तु अत्र समस्तपदस्य रूपं द्वितीयाविभक्त्याम् अस्ति इति कारणतः अतिक्रान्त इति पदस्य विभक्तिपरिवर्तनं कृत्वा, किमर्थमित्युक्ते अतिमालम् इति द्वितीयाविभक्त्यन्तपदम्, तदर्थमेव अत्र मालाम् अतिक्रान्तं पश्य इति विग्रहवाक्यं भवति. अपि च तृतीयं वाक्यमस्ति, तृतीयं वाक्यं पठतु, अग्रिमं वाक्यं पठतु.
अतिमालेन उक्तं, तस्य विग्रहः भवति मालाम् अतिक्रान्तेन उक्तम्. तत्र एकमेव विग्रहवाक्यमस्ति. मालामति इति शब्दः द्वितीयवचने एव अस्ति, एकविभक्तिः अतिक्रान्तेन इति उक्तं, तृतीयाय विभक्तिरूपं दत्तवान्.
अत्र पदम् अतिमालेन तृतीयाविभक्त्यन्तपदमस्ति इति कृत्वा तत्र विग्रहवाक्यं भिन्नरीत्या कथम् इत्युक्ते मालाम् इति नियतविभक्तिमत् पदमस्ति, नियतविभक्तिकत्वम् अस्ति इति कृत्वा तस्य परिवर्तनं न भवति. किन्तु अतिक्रान्तेन मालाम् अतिक्रान्तेन उक्तम् इति वाक्यम् अत्र अतिमालेन उक्तम् इति वाक्यम् अस्ति. तस्मिन् वाक्ये अतिमालेन समस्तपदस्य विग्रहवाक्यम् अत्र मालाम् अतिक्रान्तेन इति दत्तम्. ओ, चतुर्थी विभक्त्यन्तरूपं योजयित्वा कथं लिखितम्?
अतिमालाय देहि, तस्य विग्रहः भवति मालाम् अतिक्रान्ताय देहि. अत्रापि अतिमालाय इति अतिक्रान्ताय इति विग्रहवाक्ये चतुर्थीविभक्तिरूपम् अस्ति. मालामति नित्यविभक्तिः
इत्युक्ते आहत्य एतानि चत्वारि वाक्यानि परिशील्य भवत्याः अवगमनं किम्?
विग्रहवाक्ये विवक्षा अनुग्रह अनुगुणेन अतिशब्दस्य विग्रहवाक्यम् अतिक्रान्तं प्रथमविभक्ति वा द्वितीयविभक्ति वा तृतीया इति विवक्षा निर्दिश्य रूपं भिन्नं भिन्नं भवति. माला शब्दस्य मालाम् इति एव अवशिष्यते.
इत्युक्ते आहत्य पुनः एकवारम् उपसर्जनसंज्ञा इत्युक्ते अत्र उपसर्जनसंज्ञायाः विषये चिन्तनं कुर्मः चेत् अत्र माला इति पदस्य उपसर्जनसंज्ञा भवति. किमर्थं चेत् तस्य नेतविभक्तिकत्वम् अस्ति, तस्य निश्चिता विभक्तिः अस्ति इति कारणतः तस्य उपसर्जनसंज्ञा भवति. किन्तु अत्र
पूर्वनिपातः न भवति,
पूर्वनिपातः तु न भवति. पूर्वनिपातः न भवति चेत् अन्यत् प्रयोजनं किम् इति अपि
अवगन्तव्यं.
ह्रस्वत्वं भवति. उत्तमम्. अनन्तरम् अत्र अन्तिमपरिच्छेदम्
अत्र तु यद्यपि समासे तु मालशब्दस्य एव विभक्तिपरिवर्तनं भवति, विग्रहवाक्ये तु मालशब्दस्य द्वितीयविभक्ति एव भवति.
एव भवति. उत्तमम्. उत्तमम्. नियतविभक्तिमत् पदमस्ति.
इदानीं वार्तिकं पश्यामः चेत् क्रान्त् आदिः अर्थे द्वितीयया अस्ति. तत् द्रष्टुं वयं वक्तुं शक्नुमः किं तत्र नियत विभक्ति इति?
अत्यादयः क्रान्तादर्थे द्वितीयया.
क्रान्तादर्थे इत्युक्ते क्रान्तादि अर्थे खलु?
अर्थे. अस्य पदस्य प्रसङ्गे एव तत् सूत्रमस्ति इति भाति. अस्तु, अग्रे गच्छेम. इतोपि किञ्चित् अस्ति अत्र. उषा भगिनी भवती पठति वा? अस्ति वा उषा भगिनी? नो चेत् विनय् महोदय भवानेव पठतु.
एवं विग्रहवाक्यानि लिखामः चेत् तदा अतिक्रान्त इति शब्दस्य विभक्तिः परिवर्त्यते, किन्तु मालाम् इति पदं सर्वदा द्वितीयविभक्तौ एव भवति. मालाम् इति एव एक विभक्तिकं पदम् अस्ति. विग्रहवाक्येषु यस्य पदस्य विभक्ति न परिवर्त्यते तादृशपदम् एक विभक्तिकम्. सर्वेषु विभक्तिषु यस्य पदस्य विभक्तिः न परिवर्त्यते तत् पदम् उपसर्जनसंज्ञकं भवति. एक विभक्ति च अपूर्वनिपाते इति सूत्रेण. अतः यदि वयं पश्यामः अतिमाल प्रातिपदिकमस्ति, परन्तु प्रातिपदिकं परिवर्तनं भवति. माला परिवर्तनं न भवति यतः सूत्रः एतं वदति तद् बालां नियत निर सर्वदा निर्दिष्टः अतः मालां परिवर्तनं नास्ति परन्तु प्रातिपदिकं परिवर्तनं भवति प्रातिपदिकं भवति यथापि अन्य दशायाम् अपि सीतायाः पतिः परन्तु सीतायाः सीतापति भवति पति अपि परिवर्तनं भवितव्यं यथा पत्या पतिभिः इत्यादि अतः प्रातिपदिकं परिवर्तनं अहं गच्छामि परन्तु मालां विग्रह उपरान्तः परिवर्तनं न भवति
उत्तमम् उत्तमं महोदय तावदेव अत्र लिखितमस्ति अत्र अतिमालः इत्यस्मिन् पदे उत्तरपदं माला इति पदमस्ति तस्य पदस्य उपसर्जनसंज्ञा एकविभक्ति च पूर्वनिपाते इति सूत्रेण भवति किमर्थं चेत् तत् पदं द्वितीयान्तपदम् उपरि उक्तेन वार्तिकेन तत्र द्वितीयया इति उक्तमस्ति इति कारणतः तत्र माला इति पदस्य नियतविभक्ति कत्वम् अस्ति इति वयं वाक्यानि परिशील्य वयम् अवगन्तुं शक्नुमः उपरि यानि वाक्यानि दत्तानि तेषु माला इति पदस्य नेतिविभक्तिकत्वम् अस्ति अपि च तस्य उपसर्जनसंज्ञा भवति द्वितीयसूत्रेण न किन्तु पूर्वनिपातः तु न भवति इति एतावत्पर्यन्तम् अस्माभिः अवगतं तदनन्तरं किं भवति अग्रिमे परिच्छेदे इत्युक्ते उपसर्जनसंज्ञायाः अन्यत् प्रयोजनं भवति चेत् उपसर्जनसंज्ञा भवति चेत् तत्र इतोपि कार्यमस्ति वा इति परिशीलनीयम् अधुना अत्र अरविन्द महोदय भवानेव पठतु समापयामः
मालाम् इति पदे नियतविभक्तित्वम् अस्ति इत्यतः एकविभक्ति च पूर्वनिपाते इति सूत्रेण मालाम् इति पदस्य उपसर्जनसंज्ञा भवति परन्तु तेन एव सूत्रेण उक्तं यत् समासे उपसर्जनसंज्ञकस्य पूर्वनिपातः न भवति अत्र उपसर्जनसंज्ञायाः प्रयोजनं पूर्वनिपातः नास्ति यतोहि अत्र पूर्वनिपातः निषिध्यते तर्हि उपसर्जनसंज्ञायाः प्रयोजनम् अस्ति यत् गोस्त्रियोः उपसर्जनस्य इति सूत्रेण माला इति स्त्रीलिङ्गशब्दस्य ह्रस्वत्वं भवति अतः अतिमालः इति समासः निषिध्यते अतिमाला इति समस्तपदस्य निर्माणं कथं भवति इति अग्रे तत्पुरुषसमासे द्रक्ष्यामः अत्र अस्माकं लक्ष्यम् एकविभक्ति च पूर्वनिपाते इति सूत्रस्य अर्थावगमनम् एव
किमस्ति
अत्र एकविभक्ति च पूर्वनिपाते इति सूत्रस्य प्रयोजनं किम् इति पृच्छ्यते एकविभक्ति च पूर्वनिपाते इति सूत्रस्य उपयोगं पूर्वनिपात न भवति यत्र एकविभक्ति विधीयते तस्य प्रयोजनं दृश्यते गोस्त्रियोरुपसर्जनस्य इति सूत्रेण
इत्युक्ते पूर्वसूत्रेण तेन सूत्रेण केवलम् उपसर्जनसंज्ञा दीयते अत्र गोस्त्रियोरुपसर्जनस्य इति सूत्रेण अत्र स्त्रीलिङ्गपदमस्ति अत्र माला इति पदं स्त्रीलिङ्गपदमस्ति इति कृत्वा गोस्त्रियोरुपसर्जनस्य सूत्रेण स्त्रीलिङ्गशब्दस्य ह्रस्वत्वं भवतु इति सूत्रं वदति अनेन अत्र माला इति रूपं ह्रस्वरूपं सिद्ध्यति तेन अतियोगः माला अतिमाला प्रातिपदिकं सिद्ध्यति तत्र अतिमालः इति समस्तपदस्य निर्माणं कथं भवति इति समीचीनतया अग्रे यदा वयं तत्पुरुषसमासप्रसङ्गे इतोपि विस्तरेण पठामः अनन्तरम् अत्र अस्माकं लक्ष्यं तु अत्र एकविभक्तिचापूर्वनिपाते इति सूत्रस्य अर्धावगमनम् एव अस्माकं लक्ष्यम् अत्र इत्युक्ते आहत्य अतिमालः इत्यस्मिन् पदे अति इति पदं पूर्वपदं भवति अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अपि च उपसर्जनं पूर्वम् इति विधिसूत्रेण तस्य पूर्वप्रयोगः माला इति पदस्य उपसर्जनसंज्ञा भवति अपि च तस्य ह्रस्वत्वं भवति आहत्य वयं चत्वारि सूत्राणि दृष्टवन्तः अत्र
एकविभक्ति च पूर्वनिवाते माला डजंट गेट पूर्वनिवात इज इट राइट
आं महोदय अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति एकविभक्तिच पूर्वनिपाते सूत्रेण अतिशब्दस्य उपसर्जनसंज्ञा प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अतिशब्दस्य उपसर्जनसंज्ञा अपि च तत्र उपसर्जनं पूर्वं सूत्रेण तस्य पूर्वनिपातः इति एकं कार्यं द्वितीय उपसर्जनसंज्ञासूत्रमस्ति एकविभक्ति च पूर्वनिपाते इति द्वितीयं सूत्रमस्ति अनेन द्वितीयसूत्रेण मालाशब्दस्य उपसर्जनसंज्ञा भवति किन्तु सूत्रं वदति पूर्वनिपातः न भवति इति वदति यदि पूर्वनिपातः न भवति उपसर्जनसंज्ञा अस्ति चेत् तदा किं भवति इत्यस्य अवगमनार्थं नूतनसूत्रस्य साहाय्येन वयम् अत्र कार्यं भवति गोस्त्रियोरुपसर्जनस्य इति सूत्रस्य आधारेण वयं मालाशब्दस्य परिवर्तनं कथं भवति इति वयम् अवगन्तुं शक्नुमः तदर्थमेव अत्र स्त्रीलिङ्गशब्दस्य ह्रस्वत्वं भवति इति लिखितमस्ति एतादृशरीत्या अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव अतिमाला इत्यस्मिन् पदे वदतु
एकविभक्ति च पूर्वनिपाते इति संज्ञासूत्रमस्ति तदेव उपसर्जनं संज्ञा भवति किन्तु अत्र एकं विधि अपि दत्तं विधि इति पूर्वनिपात न भवतु
तादृशं चिन्तनम् अस्ति वा अस्तु अपूर्वनिपाते इति लिखितमस्ति इत्युक्ते तदपि विधि एव इति भवत्याः चिन्तनम्
आं भगिनि अत्र संज्ञा अपि विधिसूत्रमस्ति
किन्तु उपरि किं लिखितमस्ति सूत्रद्वयेन उपसर्जनसंज्ञा विधीयते केवलं संज्ञा एव विधीयते इति लिखितमस्ति अत्र इत्युक्ते एकविभक्ति च पूर्वनिपाते सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति किन्तु पूर्वनिपातः न भवति इति एव अत्र स्मर्तव्यम् एतावत् उपसर्जनसंज्ञायाः अवगमनम् आवश्यकं नो चेत् किं पदं पूर्वं भवति किं पदम् उत्तरपदं भवति इत्यस्य भ्रमः भवति तदर्थमेव एतत् सर्वं पाणिनिना कृतं तावत्पर्यन्तमेव भगिनी पाठितवती अत्र वयं स्थगयामः. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा इतोपि चिन्तनं करिष्यामः. सर्वेषां धन्यवादः.
धन्यवादः.
धन्यवादः.